एस रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। राष्ट्रिय सभायाः गतदिवसीय उपवेशे विभिन्नैः अष्टभिः विधेयकैः सह सम्बद्धानि विधायन व्यवस्थापन समितेः प्रतिवेदनानि प्रस्तुतानि सन्ति। विधायन व्यवस्थापन समितेः ज्येष्ठ सदस्यः सांसदः नारायण दत्त मिश्रः तानि विधेयकानि सभायां प्रस्तौत्। तत्पूर्वम् उपवेशे विशेष समयं गृहीत्वा सांसदः अनिता देवकोटा विकास सहायतायाः ग्रहणस्य अवसरे सामरिक सम्बन्धस्य प्रश्नस्य अनुद्भवनत्वेन परिपक्वां परराष्ट्रनीतिम् अवलम्बितुं सर्वकारम् सांसद भगवती न्यूपानी अगदत् नेपाल असंलग्न परराष्ट्रनीतिम् अवलम्ब्य अग्रे वर्धितुम् इच्छति इति विषय प्रतिवेशी राष्ट्रद्वयाय अन्तर्राष्ट्रिय मञ्चेषु च स्पष्टं वक्तव्य। अन्ये सांसदाश्च विविध विषयेषु विचारान् प्राकटयन्। राष्ट्रियसभाया अपरोपवेश अद्य दिवा एकवादने पुनर्वसति। सत्ता गठबन्धनस्य शीर्षनेतृभिः ह्यः सामयिक विषयेषु विमिष्टं वर्तते। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे विहिते तस्मिन् मेलने प्रधानमन्त्री शेरबहादुर देउवा, नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः, नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः, नेता झरनाथ खनालश्च जनता समाजवादी दलस्य अध्यक्षः उपेन्द्र यादवश्च उपस्थिताः आसन्। उपवेशे एसपीपी समुदायाः प्रधानमन्त्रिणः प्रस्तावितस्य अमेरिका देशीय भ्रमणस्य मन्त्रिमण्डलस्य पुनर्घटनस्य च विषयेषु विमिष्टमिति नेतारः सूचयन्। उपवेशे एसपीपी समुदायाः विषये सर्वदलीय उपवेशम् आहूय जनतां ज्ञापयितुं विमिष्टमासीत्। प्रधानमन्त्री शेरबहादुर देउवा निकट भविष्यति प्रस्तावितस्य स्वस्य अमेरिका देशीय भ्रमणस्य औपचारिक रूपेण निर्धारणम् अनु संसद ज्ञापयिष्यते इति वदति। ह्यो नेपाली कांग्रेस दलस्य सचेतक पदीयया पुष्पा भूषालेन सह सम्पन्ने मेलने असौ भ्रमण निर्धारणम् अनुसदनम् संसदीय समितिं च आगत्य औपचारिक रूपेण ज्ञापयिष्यते इत्यवासत। प्रतिनिधि सभायाः अन्तर्राष्ट्रिय सम्बन्ध समित्या भ्रमणस्य सम्बन्धे ज्ञान प्राप्त्यर्थं प्रधानमन्त्रिणो देउवा विदेश समितेः उपवेशे आकारणस्य सन्दर्भे समितेः सदस्या च भूषालः ह्यः प्रधानमन्त्रिणा सह अमिलत्। समितेः पूर्वम् उपविष्टे उपवेशे परराष्ट्रमन्त्रिणा डॉ नारायण खड्का विधेन प्रधानमन्त्रिणः अमेरिका देशीय भ्रमणस्य सम्बन्धे प्रारम्भिकं विमर्शनं विहितं, परम् अन्तिम निर्णयः अवशिष्टस्थिति स्पष्टीकृतम् आसीत्। इतः पूर्वं प्रतिनिधिसभायाः अन्तर्राष्ट्रिय सम्बन्ध समित्या प्रधानमन्त्रिणं शेरबहादुर देउवाभिदं पुनः समितेः उपवेशे आकारयितुं निर्णीतं वर्तते। समितेः गतदिवसीय उपवेशे प्रधानमन्त्री देउवा अनुपस्थितः, तदनु समित्या प्रधानमन्त्रिणं देउवाभिदं पुनः आकारयितुं निर्णीतमस्ति। आकारणस्य दिनांकः अनिर्धारितः सन्ति। तोपि प्रधानमन्त्रिणः आसन्नस्य अमेरिका देशीय भ्रमणस्य सम्बन्धे विमर्शनत्वेन समयं व्यवस्थाप्य प्रधानमन्त्री आकारयिष्यते इति समितेः सभापतिः पवित्रा निरौला खरेलः अबोधयत्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्षस्य माधव कुमार नेपालस्य गृहमन्त्रिणः बालकृष्ण खाँड इत्यस्य च मध्ये ह्यो मेलनं सम्पन्नमस्ति। आलोकनगरवर्तिनी दलस्य केन्द्रीय कार्यालये सम्पन्ने मेलने एतयोर्मध्ये वर्तमाने संसद अधिवेशने नागरिकताधिनियमम् अग्रे वर्धयितुं विमिष्टमिति गृहसचिवः टेकनारायण पाण्डे अज्ञापयत्। दलीय सहमतौ नागरिकताधिनियमं संसदि प्रस्तुत्य पारितीकरणस्य कृते गृहमन्त्री खाँड अध्यक्षं माधव कुमार नेपालम् अमिलत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः कथयति कर्मचारीतन्त्रे संघीयतां लोकतन्त्रं च दुर्बलयितुं केचन कर्मचारिणः सक्रियाः सन्ति। दलस्य भ्रातृसंघटनस्य नेपाल राष्ट्रिय कर्मचारी महासंघस्य केन्द्रीय समितेः उपवेशे ह्यः अध्यक्षः प्रचण्डः उच्चस्तरस्य कर्मचारिभिः संघीय सर्वकारीय सेवाधिनियमम् अग्रे सारयितुं न दत्तम् इत्यत्र दुःखं व्यक्तवान्। प्रचण्ड अवदत् लोकतान्त्रिक गणतन्त्रं संस्थागति कर्तुम् अधिनियम नियमाः संशोधयितव्याः। राष्ट्रपति विद्यादेवी भण्डारी भाषते कलायाः विषये समाजे उच्चस्तरस्य अन्तरक्रिया आवश्यकी वर्तते। सांस्कृतिक संस्थानस्य राष्ट्रिय नृत्यशालायाः पञ्चाशत्तम वार्षिकोत्सवस्य अवसरे ह्यः आयोजिते कार्यक्रमे राष्ट्रपति भण्डारी समाजम् उचितमार्गे नैरन्तर्येण नेतुं सांस्कृतिक संस्थानेन विभिन्न राष्ट्रिय प्रज्ञाप्रतिष्ठानैश्च पारस्परिक सहयोगेन समन्वयेन च नेतृत्वदायिनी भूमिका निर्वोढव्येति बलं प्रादात्। राष्ट्रपति भण्डारी कलायाः सजनानां च प्रत्येकं विधा जीवनस्य बहुनाम आयामानाम बहुरंगाणाम च समावेशनस्य माध्यमोस्तीति हेतुः प्राचीन कालादेव अस्माकं पूर्वजैः मौलिक कलायाः संस्कृतेश्च महत्त्वं ज्ञात्वा तेषां संरक्षणाय वयं प्रेरिताः स्मः इत्युक्तवती राष्ट्रपति भण्डारी। प्रतिवेशी राष्ट्राणां मित्र राष्ट्राणां आविश्वं विभिन्न राष्ट्राणां च सांस्कृतिक संस्थानैः निकायैश्च सह भ्रातृत्व सम्बन्धस्य विकासेन सांस्कृतिकादान प्रदानस्य माध्यमेन च नेपाली कला संस्कृतिश्च बाह्य देशे सुप्रवर्धयितुं शक्येते इति धारणां व्यक्तवती। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः कथयति प्रतिग्रामं वृत्त्युपादनस्य आयार्जनस्य च योजना निर्मातव्या। तनहुं जनपदस्य व्यास नगरपालिकाया ह्यः आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेलः अवदत् प्रतिग्रामं वृत्त्युपादनस्य आयार्जनस्य च योजनां निर्माय जनतायाः ग्रामे निवसनस्य वातावरणं स्रष्टुं स्थानीयस्तरेण ध्यानं प्रदातव्यम्। स्थानीयस्तरेषु शिक्षायां स्वास्थ्ये पेयजले विद्युति च प्राप्तासु सतिषु अपि वृत्त्युपादनस्य आयार्जनस्य च अभावेन जनाः ग्रामं परित्यज्य नगरं गन्तुं बाध्याः सन्तीति नेता पौडेलः अतर्कयत्। असौ ग्रामे मूलौषधानां फलपुष्पाणि कृषिश्च उद्योगं संचालयितुं नगरपालिकया यथासमयं ध्यानं प्रदातव्यम् इत्यत्र ध्यानम् अदात्। काष्ठमण्डप महानगरपालिकया आगामिनः आर्थिकवर्षस्य कृते नीति कार्यक्रमाः सार्वजनीकृताः सन्ति। काष्ठमण्डप महानगरपालिकायाः प्रमुखः बालेन्द्र शाहः सांस्कृतिक नगरं समृद्ध महानगरमिति समाघोषेण काष्ठमण्डप महानगरस्य नीति कार्यक्रमान् एकादश्याः नगरसभायाः प्रथमोपवेशे ह्यः सार्वजनीकृतवान्। प्रमुखेण शाहेन काष्ठमण्डपस्य व्यवस्थितीकरणं पुरातात्विक सम्पदां संरक्षणं सम्भारणयान संचालनं ज्येष्ठ नागरिकेभ्य गृहमेव गत्वा स्वास्थ्य सेवा प्रदानं च विषयाः नीति कार्यक्रमेषु समाविष्टाः सन्ति। एवमेव काष्ठमण्डपस्य वर्धमान यातायात साधनानां यान विश्रान्ति स्थलाभावस्य च समस्यां ध्यात्वा काष्ठमण्डप महानगरपालिकायाः एकादश वडा क्षेत्रस्य सार्वजनिक मञ्चस्य निकटवर्तिन्यां रिक्तभूम्यां भूमिगत यान विश्रान्ति स्थलस्य निर्माणाय सम्भाव्यतायाः अध्ययनं काष्ठमण्डपस्य अवकरस्य व्यवस्थापनाय दीर्घकालिक स्थिरोपायानां अन्वेषणं चेति विषयाः नीति कार्यक्रमेषु समाविष्टाः सन्ति। काष्ठमण्डप महानगरपालिकाया नीति कार्यक्रमाणाम् अनुसारेण अस्यैव आषाढस्य दशमे दिवसे आगामिनः आर्थिकवर्षस्य आयव्ययकम् आनीयमानमस्ति। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत कथयति स्थानीयस्तराणां निर्वाचने नेपाली कांग्रेस दलेन सहितेन पञ्चदलीय गठबन्धनेन सन्तोषजनकं प्रतिफलम् अधिगतम् इत्यतः प्रतिनिधिसभायाः प्रदेशसभानां च आगामी निर्वाचनेऽपि पञ्चदलीय गठबन्धनम् यथावत् स्थास्यति। नेपाल प्रेस युनियन संघस्य प्रशासाखया ह्यो वीरगंज स्थाने आयोजिते पत्रकार सम्मेलने प्रवक्ता डाक्टर महत नेकपा एमाले दलेन अमेरिका देशस्य एसपीपी नामकम् राज्य सहभागिता कार्यक्रमं नैर्वाचनिक कार्यसूचीं निर्मातुम् अपेक्षितम् इति आरोपयत्। बालबालिकानां क्षेत्रे कार्यरताभिः संघ संस्थाभिः विवाहस्य वयसो न्यूनीकरणम् उपयुक्तं न भवतीति परामर्शं वर्तते। प्रतिनिधिसभायाः विधि न्याय मानवाधिकार समित्या ह्यः आयोजिते विमर्शने सिजप नाम्ना बालबालिका शान्ति क्षेत्र राष्ट्रियाभियानेन विवाहस्य वयसो न्यूनीकरणस्य अपेक्षया तत्र दृष्टानां त्रुटि दुर्बलतानां न्यूनीकरणाय परामर्शं वर्तते। बझाङ जनपदस्य स्थानीयस्तरेषु नवनिर्वाचिताः जनप्रतिनिधयः पालिकायां कार्यं कर्तुं प्रशिक्षणस्य आवश्यकतां प्रदर्शयन्ति। सर्वे विषयाः न ज्ञायन्ते इत्यतः स्थानीयसर्वकारः संचालनसम्बद्धं प्रशिक्षणम् अभियाचितमस्ति। अस्माकं बझाङ जनपदस्य संवाददाता जगदीश रोकाया सूचयति। इति समाचाराः।